ओम श्री परमात्मने नमः। अथ सप्तदशोऽध्यायः। अर्जुन उवाच, ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः तेषां निष्ठा तु का कृष्ण सत्त्वमाहोरजस्तमः। श्रीभगवानुवाच, त्रिविधा भवति श्रद्धा, देहिनां सा स्वभावजा, सात्विकी राजसी चैव तामसी चेति तां शृणु। सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत, श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः। यजन्ते सात्विका देवान् यक्षरक्षांसि राजसः, प्रेतान् भूतगणाश्चान्ये यजन्ते तामसः जनः। अशास्त्रविहितं घोरं तप्यन्ते ये तपोजनः, दम्भाहङ्कारसंयुक्तः कामरागबलान्वितः। कर्षयन्तः शरीरस्थं भूतग्राममचेतसः, मां चैवान्तः शरीरस्थं तान् विद्यासुरनिश्चयान्। आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः, यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु। आयुः सत्त्वबलारोग्य सुखप्रीतिविवर्धनः, रस्याः स्निग्धा स्थिराहृद्या आहारा सात्विकप्रियः। कट्वं ललवणात्युष्ण तीक्ष्णरोक्षविदाहिनः, आहारा राजसस्येष्टा दुःखशोकामयप्रदः। यातयामं गतरसं ऊतिपर्यषितं च यत् उच्छिष्टमपि च मेध्यं भोजनं तामसप्रियम्। अफलाकाङ्क्षिभिर्यज्ञो विधे दृष्टो ययुज्यते, यष्टव्यमेवेति मनः समाधाय स सात्विकः। अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् इज्यते भरतः श्रेष्ठ, तं यज्ञं विद्धिराजसं। विधिहीनमसृष्टान्नं मन्त्रहीनम दक्षिणं, श्रद्धाविरहितं यज्ञं तामसं परिचक्षते। देवद्विजगुरुप्राज्ञ पूजनं शौचमार्जवं, ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते। अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते। मनः प्रसादसौम्यत्वं मौनमात्मविनिग्रहः, भावसंशुद्धिरित्येतत् तपोमानसमुच्यते। श्रद्धया परया तप्तं तपस्तत्रिविधं नरैः, अफलाकाङ्क्षिभिर्युक्तैः सात्विकं परिचक्षते। सत्कारमानपूजार्थं तपोदम्भेन चैव यत् क्रियते तदिह प्रोक्तं राजसञ्चलमध्रुवं, मूढग्राहेणात्मनो यत् पीडया क्रियते तपः। परस्योत्सादनार्थं वा तत्तामसमुदाहृतं, दातव्यमिति यद्दानं दीयतेऽनुपकारिणे। देशे काले च पात्रे च तद्दानं सात्विकं स्मृतं, यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः। दीयते च परिक्लिष्टं तद्दानं राजसंस्मृतम्, अदेशकाले यद्दान मपात्रेभ्यश्च दीयते असत्कृतमवज्ञातं तत्तामसमुदाहृतम्। ओं तत्सदिति निर्देशो ब्रह्मण श्रिविदः स्मृतः, ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहितः पुरा। तस्मादोमित्युदाहृत्य यज्ञदानतपः क्रियाः प्रवर्तन्ते विधानोक्तः सततं ब्रह्मवादिनां। तदित्यनभिसन्धाय फलं यज्ञतपः क्रिया, दानक्रियाश्च विविधः क्रियन्ते मोक्षकाङ्क्षिभिः। सद्भावे साधुभावे च तदित्येतत्प्रयुज्यते, प्रशस्ते कर्मणि तथा षट्शब्दः पार्थयुज्यते। यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते, कर्म चैव तदर्थेयं सदित्येवाभिधीयते। अश्रद्धयाहुतं दत्तं तपस्तप्तं कृतं च यत् असदित्युच्यते पार्थ, न च तत्प्रेत्यनो इह न च तत्प्रेत्यनो इह। ओम तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः।